इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय गृहमन्त्री अमितशाहः उक्तवान् यत् युवानः, महिलाः, कृषकाः, निर्धनजनाः च सबलाः भवेयुः इति आवश्यकमस्ति, येन 47-2000 वर्षं यावत् भारतराष्ट्रं पूर्णतया विकसितदेशः भवितुमर्हति। सः अवदत् यत् नरेन्द्रमोदी सर्वकारः एतेषां वर्गाणां कल्याणे, विकासे च विशेषं ध्यानं प्रददाति। श्रीशाहः ह्यः राजस्थानराज्यस्य अलवरनगरे एकं कार्यक्रमं सम्बोधयन् आसीत्। तेन राज्यस्य 17 जनपदेषु 53,4,00,000 कोटिरूप्यकाणां विकासपरियोजनानां शिलान्यासम् उद्घाटनं च कृतम्। तेन कथितं यत् सर्वकारेण कृषकाणां कल्याणाय अनेकाः योजनाः प्रारब्धाः। सः अवदत् यत् 14-2000 वर्षात् 26-2000 वर्षं यावत् मोदीसर्वकारेण कृषकाणां कृते बृहत् योजनाः प्रवर्तिताः, न्यूनतम समर्थन मूल्यं च निरन्तरं वर्धितमिति। नवदिल्ल्याम् अद्य केन्द्रीय राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेन 17 जनेभ्यः राष्ट्रिय अनुभव पुरस्कारः प्रदीयते। राष्ट्रनिर्माणे विशिष्ट योगदानं दत्तवद्भ्यः सेवानिवृत्त कर्मचारिभ्यः एतत् पदकम् अर्प्यते। एतदतिरिच्य पेंशन मित्र पुस्तिकायाः विमोचनं तथा 15 वित्तकोषाणां प्रदर्शनी अपि आयोज्यते। एयर इंडिया विमानसेवया विशाखापत्तनम नगरस्य सर्वाः वैमानिक यात्राः अद्य भोगापुरात् अल्लूरी सीताराम राजु अन्तर्राष्ट्रिय विमानपत्तनात् अनुवर्त्यन्ते। यासां विमानसंकेतः VTZ इति पूर्ववत् एव स्थास्यति। संस्थया भोगापुर देहली मार्गयोः मध्ये प्रतिसप्ताहं 14 उड्डयनानां चक्रं निर्दिश्यते। अस्य आधुनिक विमानपत्तनस्य प्रायः 77,000 वर्गमीटर परिमिते प्रांगणे 22 चेक इन स्थानकानि, 18 स्वचालितभार अर्पण यंत्राणि, 7 च उड्डयन सेतवः संयोजिताः सन्ति। राष्ट्रिय परीक्षण अभिकरणेन UGC नेट परीक्षायाः आंग्ल वाणिज्य समाजशास्त्र इति विषयत्रयस्य पुनः परीक्षा संचालनस्य घोषणा कृता। परीक्षायां सम्भूतानां अशुद्धीनां परिष्काराय सितम्बरमासस्य 9 दिनाङ्के आंग्ल वाणिज्ययोः तथा सितम्बरमासस्य 10 दिनाङ्के समाजशास्त्रस्य पुनः परीक्षा भविष्यति। विशुद्धानां निष्पक्षाञ्च परीक्षां विधातुम् एषः निर्णयः समिति अनुशंसया गृहीतः। भारतं श्वः नवदिल्ल्यां 12 ब्रिक्स ऋतुदशामन्त्रिणां सम्मेलनम् आयोजयिष्यति। इतः प्राक् अद्य ऋतुदशाकार्यसमूहस्य जलवायुपरिवर्तनस्य, सुस्थिरविकासस्य विषये सम्पर्कसमूहस्य च ब्रिक्स वरिष्ठ अधिकारिणां सभा भविष्यति। 26,000 वर्षस्य भारतस्य ब्रिक्स अध्यक्षपदस्य विषयः स्थितिस्थापकतायाः, नवान्वेषणस्य, सहकारस्य, सुस्थिरतायाः च निर्माणम् इत्यस्ति। भारतम् अद्यारभ्य अगस्तमासस्य 23-तमं दिनाङ्कं यावत् नवदिल्लीनगरे स्थिते इन्दिरागान्धी स्टेडियम् इति स्थाने BWF विश्व चैंपियनशिप स्पर्धाम् आयोजयिष्यति। 9,000 वर्षस्य स्पर्धायाः अनन्तरमिदं द्वितीयवारं यदा भारतदेशः एतां स्पर्धाम् आयोजयति। FIH पुरुष हॉकी विश्वचषक स्पर्धा मालिकायां भारतीय पुरुष हॉकी दलम् अद्य स्वस्य विजय यात्रां निरन्तरं कर्तुम् इंग्लैंड दलेन सह स्पर्धिष्यते इति वार्ताः।